राम गीता जी का पाठ दूसरा अध्याय श्लोक 51 से 61 तक। राम
वसुदेव सुतम देवकी परमानंदम वंदे जगद्गुरु कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणा जन्मबन्धविनिर्मुक्ता पदं गच्छन्त्यनामयम् यदा ते मोहकलिलम् व्यतितरिष्यति तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च श्रुतिवे प्रतिपन्नासि यदा स्थास्यति निस्तदा समाधावचला बुद्धि सदा योगमवाप्स्यसि। अर्जुन उवाच शिव प्रज्ञस्य का भाषा समाधेस्तस्य केशव स्थितधीः किं प्रभाषेत किमासीद व्रजेत किम्। श्री भगवान उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् आत्मन्येवात्मना तुष्ट स्थित प्रज्ञस्तदुच्यते दुःखेष्वनोद्विग्नमना सुखेषु विगत स्पृह गीतरागभय क्रोध स्थितधीर्मनिरुच्यते यः सर्वत्रानभिस्नेह सत्तत्प्यशुभाशुभम् नाभिनन्दति न देशे तस्य प्रज्ञा प्रतिष्ठिता यदा संहरति सायं कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियाधिभ्य स्वस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिना रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय पुरुषस्य विपस्थित इन्द्रियाणि प्रमाथिनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य युक्त आसीत मात्पर वशी यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता तानि सर्वाणि संयम्य युक्त आसीत मात्पर वशी यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता वसुदेव सुतं देवम् पञ्चजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं।
Hare Sharanam, 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 Hare Sharanam.